इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। आदौ मुख्यवार्ताः। प्रधानमन्त्री श्री नरेन्द्र मोदी अद्य मध्याह्ने घानादेशस्य संसदं सम्बोधितवान्। भारतं घाना च व्यापक सहयोगरूपेण स्वसम्बन्धस्य उन्नतीकरणाय सहमतौ जातौ। विदेशमन्त्री सुब्रह्मण्यम् जयशंकरः आतंकवादविषये भारतस्य समर्थनं न करणाय पाश्चात्यदेशानामुपरि प्रश्नं कृतवान्। सः आतंकवादस्य निवारणे अधिकाधिक एकीकृत वैश्विक सहकार्यस्य आवश्यकतायाः उपरि बलं दत्तवान्। केन्द्रेण अनेकेषां पाकिस्तानी अभिनेतॄणां क्रिकेट क्रीडकानां च सोशियल मीडिया अकाउंट्स इति सामाजिक माध्यम पुटकानां पुनः प्रतिबन्धः कृतः। हिमाचल प्रदेशे विगत द्वादश दिनेषु अतिवृष्टि सम्बद्धासु घटनासु 63 जनाः मृताः। भारतीय ऋतुविज्ञान विभागेन हिमाचल प्रदेशस्य 6 मण्डलेषु प्रवाह संभावना प्रकटिता वर्तते। अपि च क्रिकेट क्रीडायां बर्मिंघम नगरे एजबेस्टन क्रीडांगणे टेस्ट क्रीडायाः द्वितीय स्पर्धायाः द्वितीय दिने इंग्लैंड विरुद्धं प्रथमचक्रे अन्तिमसूचना पर्यन्तं भारतेन 6 स्तोभकानां हानिपुरस्सरं 29,400 धावनांकाः समार्जिताः। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्री श्री नरेन्द्र मोदी घानादेशस्य संसदं सम्बोधयन्त अवदत् यत् घानादेशः लोकतन्त्रस्य भावनां विकीर्णां करोति, यत्र हि घानादेशे भवितुं सम्माननीयं संसदं च सम्बोधयितुं सः अतीव गौरवम् अनुभवति। प्रधानमन्त्री अवदत् यत् विश्वस्य बृहत्तमस्य लोकतन्त्रस्य प्रतिनिधित्वेन सः 1.4 शतकोटि भारतीयानां सद्भावनाम् अभिवादनाञ्च स्वेन सह समानयत्।
इस सम्मान के लिए मैं 140 करोड़ भारतीयों की तरफ से घाना के लोगों का आभार व्यक्त करता हूं। आई डेडिकेट इट टू द एंड्योरिंग फ्रेंडशिप एंड शेयर्ड वैल्यूज दैट बाइंड इंडिया एंड घाना।
प्रधानमन्त्री अवदत् घाना देशः न केवलं तस्य मृत्तिकायां सुवर्णः अस्तीति सुवर्णभूमिः इति प्रसिद्धः, अपि तु तस्य जनानां तेजसः बलस्य च कारणेन सः सुवर्णभूमिः कथ्यते।
इंडिया इज द मदर ऑफ डेमोक्रेसी। हमारे लिए लोकतंत्र एक सिस्टम नहीं बल्कि संस्कार है। हजारों वर्षों से लोकतंत्र ने भारतीय समाज को निरंतर गति दी है। वी हैव एग्जाम्पल्स ऑफ सेंटर्स लाइक वैशाली, द ऋग्वेदा, वन ऑफ द वर्ल्ड्स ओल्डेस्ट स्क्रिप्चर्स।
ततः पूर्वं प्रधानमन्त्री मोदी अथ घानादेशस्य राष्ट्रपतिः जॉन द्रमणी महामा च प्रतिनिधिमण्डलस्तरस्य वार्तां कृतवन्तौ। ततः राष्ट्रद्वयं व्यापक सहयोगरूपेण स्वसम्बन्धस्य उन्नतीकरणाय सहमतम् अभवत्। तयोर्मध्ये व्यापार निवेश कृषिक्षेत्र डिजिटल प्रौद्योगिकी क्षमतानिर्माण आधारभूतसंरचना जनसम्बन्धादिषु क्षेत्रेषु सहकारविस्तारस्य विषये चर्चा अभवत्। द्वयोः देशयोः मध्ये संस्कृति मानक आयुर्वेद पारंपरिक चिकित्सा क्षेत्रेषु चत्वारि सन्धिपत्राणि संयुक्त आयोग तंत्र विषये च हस्ताक्षराणि कृतानि। उभौ नेतारौ घानादेशे वर्धमानस्य द्विपक्षीय व्यापारस्य भारतीय निवेशस्य च स्वागतं कृतवन्तौ। रक्षा सुरक्षा सहकार्यस्य विषये अपि उक्तवन्तौ। इतः परं श्रीमोदी स्वस्य यात्रायाः द्वितीये चरणे त्रिनिदाद टोबैगो देशं प्रति प्रस्थितवान्। प्रधानमन्त्रित्वेन अस्य देशस्य तस्य प्रथमा यात्रा भविष्यति। 99-29 वर्षात् परं प्रधानमन्त्रिस्तरस्य प्रथमा द्विपक्षीय यात्रा च इयं भविष्यति। विदेशमन्त्री सुब्रह्मण्यम् जयशंकरः आतंकवादविषये भारतस्य समर्थनं न करणाय पाश्चात्यदेशानामुपरि प्रश्नं कृतवान्। सः आतंकवादस्य निवारणे अधिकाधिकम् एकीकृत वैश्विक सहकार्यस्य आवश्यकतायाः उपरि बलं दत्तवान्। अमेरिकादेशस्य वाशिंगटन नगरे वार्ताहराणां प्रश्नानां प्रतिक्रियारूपेण डॉ जयशंकरः अवदत् यत् प्रायः एते देशाः आतंकवादेन पीडितानां देशानां कृते समर्थनं न दास्यन्ति यावत् ते स्वयमेव तस्य दुष्प्रभावग्रस्ताः न भवन्ति।
On the terrorism issue, again, it is a fact that often countries do not take a position when some other country is a victim of terrorism, which they would do when they themselves are. We have, in that respect, honestly been much more consistent and principled. That we have, when terrorist incidents, attacks happen elsewhere, outside India, we have largely followed the same position that we have taken when they have happened in India, which is why it's important to speak up and which is why it's important to carry them with us.
सर्वकारेण अनेकेषां पाकिस्तानी अभिनेत्रीणां क्रिकेट क्रीडकानां च सोशियल मीडिया अकाउंट्स इति सामाजिक माध्यम पुटकानां पुनः प्रतिबन्धः कृतः सूत्रानुसारं तांत्रिक कारणात् कञ्चित् कालपर्यन्तं एतानि पुटकानि उद्घाटितानि च आसन् अवधेयं यत् अस्मिन् वर्षे मे मासे भारत विरोधि प्रचार कारणेन अवांछित सामग्रीणां च प्रसारार्थं बहुनां पाकिस्तानी यूट्यूब चैनल्स सोशल मीडिया अकाउंट्स इत्येतेषां प्रतिषेधः कृतः आसीत् एतेषु अभिनेता सबा कमर अहाद रजा मीर युमना जैदी अथ दानिश तैमूर इत्येतेषां इंस्टाग्राम अकाउंट्स तथा च क्रिकेट क्रीडकाभ्याम शाहिद अफरीदी एवं शोएब अख्तर इत्याभ्याम यूट्यूब चैनल इति सम्मिलितानि सन्ति सर्वाणि पाकिस्तानी ओटीटी प्लेटफॉर्म्स मीडिया स्ट्रीमिंग सेवाः पाकिस्तानी वेब सीरीज गीतानि चलचित्राणि पोस्ट पॉडकास्ट तथा अन्य माध्यम सामग्रीणां च प्रतिषेधार्थं निर्देशः प्रदत्तः वर्तते संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति प्रचण्डवृष्ट्या मेघविस्फोटेन आकस्मिकजलप्रलयेन भूस्खलनेन च सम्पूर्णे हिमाचलप्रदेशे सामान्यजीवनं भृशं बाधितं जातम् जूनमासस्य 20 दिनांकादारभ्य अतिवृष्टिसम्बद्धासु घटनासु 63 जनाः मृताः शताधिकजनाः व्रणिताः 40 जनाः अद्यावधि लुप्ताः सन्ति इति सूचना वर्तते अद्य श्वः च राज्ये केषुचित् स्थानेषु अत्यधिकवृष्टिः भविष्यति इति ऋतुविभागेन पीतसंचेतना प्रकटिता वर्तते भारतीय ऋतुविज्ञानविभागेन अनुमानितं यत् अरुणाचलप्रदेशः पूर्वमध्यप्रदेशः गुजरातं हिमाचलप्रदेशः नागालैण्डः मणिपुरं मिजोरामः त्रिपुरा आदि राज्याणां पृथक् पृथक् स्थानेषु अद्य प्रचण्डवृष्टिः भवतीति आकाशवाण्या सह वार्तालापं कुर्वन् ऋतुविज्ञान विभागस्य वरिष्ठः वैज्ञानिकः आरके जेनामणिः अवदत् यत् अद्य कोंकण गोवा मध्य महाराष्ट्र पूर्वी राजस्थान कर्नाटक राज्येषु अत्यन्तं प्रचण्डवृष्टिः भवतीति रक्तवर्णीय संचेतना प्रकटिता वर्तते उत्तराखण्डे अतिवृष्टिकारणेन चतुर्धामयात्रायाः मार्गेण सह अनेके मार्गाः अवरुद्धाः सन्ति गतरात्रौ सोनप्रयागस्य समीपे 40 अधिकाः केदारनाथ तीर्थयात्रिकाः अटन्ति स्म किन्तु राज्य आपदुद्धारबलेन ते सुरक्षितरूपेण निष्कासिताः अद्य औपचारिकरूपेण समारब्धस्य 38 दिवसीया वार्षिक श्री अमरनाथजी यात्रा दक्षिणकश्मीरस्य अनन्तनागमण्डलस्य पहलगाम मध्यकश्मीरस्य गन्देरबलमण्डलस्य बालटात द्वयोः मार्गयोः सुचारुरूपया प्रचलति क्रिकेट क्रीडायां बर्मिंघम नगरे एज बेस्टन क्रीडांगणे एंडरसन तेंडुलकर ट्रॉफी टेस्ट क्रीडायाः द्वितीय स्पर्धायाः द्वितीये दिने इंग्लैंड विरुद्धं प्रथमचक्रे अंतिम सूचना पर्यन्तं भारतेन 6 स्तोभकानां हानिपुरस्सरं 21,400 धावनांकाः समार्जिताः इति वार्ताः